सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनेये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनेये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अस्तु, अष्टाध्याय्यां सूत्राणां बलावलम् इति पाठः प्रवर्तमानः अस्ति. सूत्राणां बलावलप्रसङ्गे पूर्वत्रासिद्धमिति सूत्रं पठितवन्तः. पूर्वत्रासिद्धमिति सूत्रं त्रिपाद्यां प्रथमं सूत्रमस्ति. तस्य अधिकारः सम्पूर्ण अष्टाध्याय्याम् अस्ति. पूर्वत्रासिद्धमिति सूत्रस्य कार्यं द्विविधम् अस्ति, शास्त्रासिद्धं कार्यासिद्धम्. अष्टाध्याय्याम् एतत् सूत्रमेव उक्तमस्ति, किन्तु अस्य सूत्रस्य सम्पूर्ण अर्थावगमनार्थम् अस्य सूत्रस्य कार्यं द्विविधं भवति इति कौमुदीकारेण उक्तमस्ति. इत्युक्ते सिद्धान्तकौमुद्याम् एवं रीत्या सूत्रस्य कार्यं द्विविधं भवति इति तत्र उक्तमस्ति अस्माकम् अवगमनार्थम्. पूर्वस्मिन् वर्गे पूर्वत्रासिद्धम् इति सूत्रस्य शास्त्रासिद्धम् इति सिद्धान्तस्य प्रसङ्गे पठितवन्तः. शास्त्रासिद्धं प्रसङ्गे किञ्चित् स्मारयामि. पूर्वत्रासिद्धम् इति सूत्रस्य अर्थः कः? पूर्वसूत्रं प्रति परसूत्रम् असिद्धम्. युगपत् इत्युक्ते प्रक्रियाकाले एकस्मिन् समये एकस्मिन् स्थले. द्वयोः सूत्रयोः प्रसक्तिः एकत्र भवति चेत् पूर्वत्रासिद्धम् इति नियमेन पूर्वसूत्रं प्रति परसूत्रं स्वयम् असिद्धं भवति. युगपत् इत्युक्ते एकस्मिन् समये एकस्मिन् स्थले. एकां स्थितिं वदामि. एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति. तदा त्रिपादिस्थं सूत्रं स्वयम् असिद्धं भवति. सपादसप्ताध्यायी ग्रन्थभागे यत् सूत्रमस्ति तेन सूत्रेण एव प्रथमं कार्यं करणीयम्. सूत्रद्वयं यदि त्रिपाद्याम् अस्ति तर्हि पूर्वत्रिपादीसूत्रं प्रति परत्रिपादीसूत्रं स्वयमसिद्धं भवति. एतदेव शास्त्रासिद्धम् इति उच्यते. असिद्धम् असिद्धम् इति बहुवारं वदामः. तस्य अर्थः कः इत्युक्ते पूर्वसूत्रस्य दृष्ट्या परसूत्रस्य अस्तित्वं नास्ति, अथवा पूर्वसूत्रं परसूत्रस्य कार्यं न पश्यति, अथवा पूर्वसूत्रेण परसूत्रस्य कार्यं न दृश्यते. एतदेव शास्त्रासिद्धम् इति वदामः. शास्त्रासिद्धम् इति सिद्धान्तस्य अवगमनार्थं त्रीणि उदाहरणानि वयं दृष्टवन्तः. प्रथमतया यज्जायते इति पदं स्वीकृत्य वयं चिन्तनं कृतवन्तः. तत्र सन्धिकार्याणि भवन्ति खलु. यज्जायते इत्यत्र झलां जशोन्ते स्तोश्चुनाश्चुः इति द्वयोः सूत्रयोः प्रसक्तिः अस्ति. झलां जशोन्ते इति सूत्रं पूर्वसूत्रमस्ति, स्तोहश्चुनाश्चुः इति परसूत्रमस्ति. यद्यपि द्वयोः प्रसक्तिः अस्ति, अत्र पूर्वत्रासिद्धम् इति नियमेन झलां जुषोन्ते इति सूत्रं पूर्वसूत्रमस्ति इति कारणतः तस्य कार्यं प्रथमं करणीयं, पश्चात् एव स्तोहश्चुनाश्चुः इति सूत्रस्य कार्यं भवति. इत्युक्ते झलां जुषोन्ते इति सूत्रस्य कार्यानन्तरम् अपि स्तोहश्चुनाश्चुः प्रसक्तिः अस्ति इत्यतः तस्य कार्यं भवति. एवं रीत्या सूत्रसङ्ख्यादृष्ट्या कार्याणि क्रमेण कुर्मः. सर्वेषां हल्सन्धिसूत्राणां प्रसङ्गे पूर्वत्रासिद्धम् इति सूत्रस्य आधारेण निर्णयं कुर्मः. सूत्रसङ्ख्यां दृष्ट्वा क्रमेण तत्र कार्याणि भवन्ति. अन्यत् उदाहरणं वयं पठितवन्तः. मनोरथः इति समस्तपदस्य रूपसाधनवेलायां मनसः रथः इति विग्रहवाक्यमस्ति. मनोरथः इत्यस्मिन् आदौ ससजुषोरुः इति सूत्रेण कार्यं भवति. तेन मनोर् इति रूपं सिद्ध्यति. मनोर्योगः रथ इत्यस्यां दशायां मनोर्योगः रथ इत्यस्मिन् सोपाने रोरि इति सूत्रस्य प्रसक्तिः अस्ति. हषि च सूत्रस्य प्रसक्तिः अपि अस्ति. हषि च इति सूत्रं पूर्वसूत्रमस्ति, रोरि इति सूत्रं परसूत्रमस्ति इत्यतः पूर्वत्रासिद्धम् इति नियमेन हषि च सूत्रस्य कार्यमेव भवति. तत्र परसूत्रम् असिद्धं भवति. हषि च इति सूत्रेण हष् वर्णे परे अतः उत्तरस्य रेफस्य उकारादेशः भवति. पश्चात् तत्र आद्गुणः कार्यमपि भवति. अन्ततो गत्वा मनोरथ इति प्रातिपदिकं, मनोरथः इति समस्तपदस्य निर्माणं भवति. तृतीयम् उदाहरणमस्ति संस्कृतिः. संस्कृतिः इति पदस्य निष्पादनावसरे आदौ सम्पर्युपेभ्यः करोतौ भूषणे इति सूत्रेण सुट् आगमः भवति सम्पर्युपेभ्यः करोतौ भूषणे इति सूत्रं तत्र कार्यं करोति तेन सुट् आगमः भवति तदा तत्र स्थितिः का इत्युक्ते संयोगः सकारः योगः कृति इति स्थितिः अस्ति तस्यां दशायां सम् इत्यत्र मकारः अस्ति खलु तस्यां दशायां तत्र मोनुस्वारः समः सुटि द्वयोः सूत्रयोः प्रसक्तिः अस्ति मोनुस्वारः सूत्रेण मकारस्य अनुस्वारादेशः भवति वा नो चेत् समः सुटि सूत्रेण मकारस्य ऋत्वं भवति वा इति प्रश्नः उदेति तस्यां दशायां पूर्वत्रासिद्धम् इति नियमेन निर्णयं कुर्मः समः सुटि इति सूत्रं पूर्वत्रिपादीसूत्रमस्ति मोनुस्वारः इति परत्रिपादीसूत्रमस्ति सूत्रद्वयमपि त्रिपाद्याम् एव अस्ति किन्तु समः सुटि इति सूत्रं पूर्वसूत्रमस्ति इत्यतः पूर्वं प्रति परसूत्रम् असिद्धं पूर्वत्रिपादीसूत्रं प्रति परत्रिपादीसूत्रम् असिद्धम् इत्यतः समः सुटि इति सूत्रेण सुटिपरे मकारस्य ऋत्वमेव भवति पश्चात् अन्यानि सन्धिकार्याणि भवन्ति तेन संस्कृतिः इति रूपं सिद्ध्यति इमानि उदाहरणानि शास्त्रासिद्धम् इति सिद्धान्तस्य अवगमनार्थं वयं पठितवन्तः सम्पर्युपेभ्यः करोतौ भूषणे इति सूत्रे करोतौ इति पदं दत्तमस्ति तत्पदं तिङ्गन्तपदम् इव दृश्यते किन्तु तिङ्गन्तं नास्ति सुबन्तमेव करोति इति प्रातिपदिकस्य सप्तमी विभक्ति एकवचनरूपं करोतौ इति भवति एवं रीत्या कथं भवति इति प्रश्नः उदेति तदर्थम् इक्स्तिपौ धातुनिर्देशे इति वक्तव्यम् इति एकं वार्तिकमस्ति इक्स्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन एवं रीत्या सूत्रेषु पदानि सिद्ध्यन्ति अस्य वार्तिकस्य प्रयोजनं किम् इत्युक्ते अनेन वार्तिकेन द्वौ प्रत्ययौ विहितः भवतः इक् प्रत्ययः स्तिप् प्रत्ययः च तयोः प्रयोजनं किम् इत्युक्ते ताभ्यां सह धातोः रूपं प्रदर्श्यते सूत्रेषु सूत्रालङ्कारार्थम् अथवा छन्दसः कृते तयोः प्रयोगः क्रियते करोतौ इत्यस्मिन् पदे स्तिप् प्रत्ययस्य प्रयोगः कृतः दृश्यते स्तिप् इति कथनेन तत्र आदौ तालव्यषकारः अस्ति स्तिप् इति प्रत्यये अनुबन्धवर्णाः सन्ति पकारः हलन्त्यमित्यनेन इत्संज्ञकः भवति आदिमतालव्यषकारः लशक्वतद्धिते इत्यनेन इत्संज्ञकः भवति ति एव अवशिष्यते अत्र स्तिप् प्रत्ययः शित्वात् सार्वधातुकः अत्र क्रूधातोः परं स्तिप् इति प्रत्ययः विहितः भवति स्तिप् प्रत्ययस्य प्रयोजनं किम् इत्युक्ते अलङ्कारप्रयोजनम् एकमस्ति यङ्लुगन्तानां प्रसङ्गे अपि स्तिप् प्रत्ययस्य प्रयोजनमस्ति सूत्रेषु प्रयुक्तानां शब्दानां रूपम् एवं किमर्थमस्ति इति प्रश्ने सति तत्र इक्स्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन एवं रीत्या पाणिनेः सूत्रेषु प्रयोगः कृतः दृश्यते अलङ्कारप्रयोजनम् एकमस्ति छन्दसः कृते एवं लिखितमस्ति सूत्रकारेण स्तिप् प्रत्ययः प्रयुक्तः सूत्रेषु धातुनिर्देशार्थं स्तिप् प्रत्ययस्य प्रयोगः भवति तत्र क्रूधातोः परं स्तिप् इति प्रत्ययः अस्ति स्तिप् प्रत्ययः कीदृशः इति प्रश्नः उदेति स्तिप् प्रत्ययः शित्वात् सार्वधातुकः किन्तु कृत् प्रत्ययः क्रूधातुः तनादिगणे अस्ति इत्यतः तनादिकृण्भ्यः उः इति सूत्रेण ऊ विकरणप्रत्ययः अपि तत्र आयाति क्रूयोगः ऊ योगः स्तिप् इति स्थितिः अस्ति अनुबन्धलोपानन्तरम् ऊ प्रत्ययः आर्धधातुकप्रत्ययः इत्यतः गुणः भवति पश्चात् स्तिप् प्रत्ययः अपि सार्वधातुकः तत्र गुणकार्यं भवति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा करोति इति रूपं सिद्ध्यति करोति इति रूपम् आत्मनेपदीरूपं नास्ति परस्मैपदीरूपमपि नास्ति तत्तु प्रातिपदिकं करोति इति प्रातिपदिकम् अस्ति करोति इति सुबन्तप्रातिपदिकं सिद्ध्यति तत्र इक्स्तिपौ धातुनिर्देशे इति वार्तिकेन करोति इति सुबन्तप्रातिपदिकं सिद्ध्यति तस्य सप्तम्यन्तं रूपमेव करोतौ एतादृशरीत्या सूत्रेषु धातुनिर्देशः कृतः दृश्यते अन्यानि उदाहरणानि अपि अहं प्रेषितवती हस्तेर्भूः इत्यस्मिन् सूत्रे हस्तेः इति कथनेन तत्रापि स्तिप् प्रत्ययस्य प्रयोगः कृतः दृश्यते हस्तेर्भूः इति सूत्रं कुत्र आयाति इति प्रश्ने सति अस् धातोः आर्धधातुककृदन्तरूपाणि जानीमः खलु अस् धातोः आर्धधातुककृदन्तरूपाणि भूधातोः रूपाणि अस् धातोः रूपाणि समानानि कानिचन रूपाणि भूधातोः ल्युट् रूपं भवनम् अस् धातोः ल्युट् रूपमपि भवनमेव भूधातोः णुवल् रूपं भावकः, अस्धातोः णुवल् रूपमपि भावकः एव. एवं रीत्या कानिचन आर्धधातुककृदन्तरूपाणि अस्धातोः प्रसङ्गे सन्ति. तत्र अस्तेर्भूः इति सूत्रेण अस्धातोः प्रसङ्गे भू आदेशः भवति आर्धधातुकविवक्षायाम्. अस्तेर्भूः इति सूत्रेण तत्र कार्यं भवति. अस्तेर्भूः इत्यस्मिन् सूत्रे अपि इक्स्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन एव तत्र स्तिप् इति प्रत्ययः विहितः भवति. इत्यतः अस्तेः इति सुबन्तं रूपं द्रष्टुं शक्नुमः. एवमेव एकम् अन्यत् सूत्रम् अस्ति, हो हन्तेर्निन्नेषु इति एकं सूत्रमस्ति. हन् धातोः प्रसङ्गे तत् सूत्रम् अवश्यं स्मर्तव्यम्. हन् धातोः प्रथमपुरुष बहुवचनरूपं लट्लकारे घ्नन्ति अस्ति. हन्ति, हतः, घ्नन्ति इति रूपाणि भवन्ति हन् धातोः प्रसङ्गे. घ्नन्ति इति रूपम्. एवमेव हन् धातोः णुवल् प्रत्ययान्तरूपं घातकः. हन्तकः इति नास्ति, हन्तकः इति असाधुरूपम्. हन् धातोः णुवल् प्रत्ययान्तरूपं घातकः. कथं तद्रूपं सिध्यति इति प्रश्ने सति तत्र हो हन्तेर्निन्नेषु इति एकं सूत्रमस्ति. हन्तेः इति एकं पदमस्ति तस्मिन् सूत्रे अपि. हन्तेः, हन्ति इति प्रातिपदिकम् आदौ निर्मामः, पश्चात् हन्ति इति रूपं तत्र तिङन्तरूपं नास्ति. परस्मैपदरूपं, तिङन्तरूपं, हन् धातोः लट्लकारप्रथमपुरुषे एकवचनरूपं हन्ति, तादृशं रूपं तत्र नास्ति सूत्रे. तत्र किमस्ति इत्युक्ते प्रातिपदिकमस्ति इति स्मर्तव्यम्. एतादृशी स्थितिः कथं जायते इति प्रश्ने सति इक् स्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन इक् प्रत्ययः अथवा स्तिप् प्रत्ययः विहितः भवति चेदेव एतादृशं रूपं द्रष्टुं शक्नुमः सूत्रेषु. अस्तु, शास्त्रासिद्धं प्रसङ्गे वयं किञ्चित् अवगतवन्तः.
एकं सूत्रमस्ति महोदय, शुगमीय मां च, तत्रापि गम् धातुः इका निर्दिष्टवत्.
उत्तमं, भुवादिगणीयधातोः प्रसङ्गे वदतु.
तत्र गम् इषु, इष् धातु, गम् धातु, अनन्तरम् इष् गम् इषु गमीयमां यं धातु.
तत् सूत्रं त्रयाणां धातूनां प्रसङ्गे कार्यं करोति. इष् धातुतः इच्छति, गम् धातुतः गच्छति, यम् धातुतः यच्छति. एतेषां प्रसङ्गे अपि अस्य वार्तिकस्य प्रयोगः कृतः. वदतु.
तत्र गम् इति गमीय सूत्रे गमी इति अस्ति, वदतु धातु गम् इति अस्ति. तत्र छन्दसि, छन्दस् कृते तत्र उच्चारणं सम्यक् भवतु इति कृत्वा गम् इत्यत्र इक् इति गम् योग इक् इक् इत्यत्र ककारः हलन्त्यम् इत्यञ्जा भवति, तस्य लोप इति लोपः भवति, इति अवशिष्यते गम् योग इ गमी इति भवति तत्र. अतः तत्र इषु गमीय मां च इदानीम् उच्चारणं सम्यक् भवति इति कृत्वा.
बहु सम्यक्, गमी इत्यत्र. नीलं भगिनी, भवती अवगतवती खलु महोदयेन यदुक्तं तत् भवती वदतु. अहं स्तिप् प्रत्ययस्य प्रयोजनं किम् इति उक्तवती. करोतौ इत्यत्र स्तिप् इति प्रत्ययस्य प्रयोगः अस्ति, किन्तु गम् धातुतः गच्छति इति रूपसाधनवेलायां इषु गमी यमां छः इति सूत्रम् उपकरोति. गमी इति रूपं किमर्थं दत्तमस्ति सूत्रे, गमी इति रूपं कथं सिध्यति इति प्रश्नः उदेति. धातुनिर्देशार्थं सूत्रे इक् इति प्रत्ययः प्रयुक्तः. नीलं भगिनी वक्तुमिच्छति वा?
सम्यक्तया न जानामि.
महोदयः किम् उक्तवान् इत्युक्ते गमी इति रूपं दत्तमस्ति सूत्रे. इषु गमी यमां छः इति लिखितमस्ति. गमी इति रूपं किमर्थं सूत्रे अस्ति इत्युक्ते छन्दसः कृते सूत्रालङ्कारार्थं गमी इति रूपं सूत्रे दत्तमस्ति. स्तिप् प्रत्ययः नास्ति गमी इत्यत्र. इक् इति प्रत्ययः अस्ति. इक् प्रत्ययः वा भवतु, स्तिप् प्रत्ययः भवतु, सूत्रालङ्कारार्थं छन्दसः कृते तयोः प्रत्ययोः प्रयोगः भवति. गमी इत्यत्र इक् इति प्रत्ययः प्रयुक्तः. इक् इत्यत्र ककारः इति संज्ञकः, ई एव अवशिष्यते. गम् योगः ई गमि इति रूपं तत्र सिध्यति. इषु गमि यमां छः. एवं रीत्या सूत्रेषु धातुनिर्देशः अनेन वार्तिकेन क्रियते. तदर्थमेव तादृशानि रूपाणि द्रष्टुं शक्नुमः.
दीर्घसूत्रमस्ति, पाग्रा, तत्र स्थाने पिबादेशः भवति, स्था स्थाने तिष्ठादेशः भवति. तत् सूत्रे अपि बहुत्र एतत् इक्ष्तिपादात्मनिर्देशं दृश्यते. इदानीं न स्मरामि सम्पूर्णसूत्रं, परन्तु तत् अपि अस्ति पाग्रास्मा, तत्र एकं सूत्रमस्ति.
बहु सम्यक्.
तेन
सूत्रेण कानि कानि पदानि सिद्ध्यन्ति वदतु.
पादातु पिब् इति भवति, पादातुतः पिब् परिवर्तनवेलायां तत्र स्तिप् प्रत्ययः वा.
भवन्तः जानन्ति खलु पाधातुः गणद्वये अस्ति. पाधातुः भुवादिगणे अस्ति, अदादिगणे अस्ति. अदादिगणे अस्ति चेत् तस्य रूपं पाति, रक्षणं करोति. रक्षणार्थे अदादिगणे पाधातुः अस्ति. पाति, पाहि इत्यादीनि रूपाणि तत्र सन्ति. किन्तु भुवादिगणे अपि एकः पाधातुः अस्ति पानार्थे. तस्य रूपं तु पिबति. पाधातोः प्रसङ्गे लटीरूपं पिबति कथं सिद्ध्यति इति प्रश्नः उदेति. तस्मिन् अवसरे एव महोदयेन यत् सूत्रम् उक्तमस्ति तेन सूत्रेण कार्यं भवति. पा घ्राध्मा स्थाम्ना दाण् दृश्यर्ति सर्ति सद सदां पिबजिग्र धमतिष्ठ मनयच्छ पश्यच्छ धौषीय सीदाः. सूत्रे काठिन्यं नास्ति. आदेशाः भवन्ति इति. पा स्थाने पिब आदेशः भवति, घ्रास्थाने जिघ्र आदेशः भवति. तदर्थमेव पाधातोः रूपं पिबति. घ्रा इति धातुः अस्ति, तस्य लटीरूपं जिघ्रति. नासिका घ्राणेन्द्रियं, जिघ्रति इति तत्र लटीरूपम् अस्ति. ध्मा वयं भगवद्गीतायां पठितवन्तः खलु.
शङ्खं
धमति. धमति इत्यत्र धातुः कः?
ध्मा इति धातुः.
अनेन सूत्रेण एव धमा इति धातुः अस्ति चेदपि तत्र धम इति आदिष्टः भवति. स्था इति धातोः उल्लेखः अस्ति अस्मिन् सूत्रे. स्था स्थाने कः आदेशः भवति?
मनास्थाने
मन. दा स्थाने यच्छ. दा धातोः रूपमेव खलु यच्छति. अपि च पश्यामः इति वदामः. पश्य इत्यत्र धातुः कः?
दृश्य इति धातुः. पश्य इति
दृश्यर्ति इति उक्तमस्ति सूत्रे. दृश् इति धातोः उल्लेखः अपि अस्मिन् सूत्रे अस्ति. दृश्यर्ति सर्ति
इति धातुः.
रु इति धातुः अस्ति. रु धातोः प्रसङ्गे एव अनेन वार्तिकेन अर्ति इति रूपं सूत्रे द्रष्टुं शक्नुमः. नरसिंह हेग्डे महोदय, भवान् वदतु. अस्मिन् सूत्रे अर्ति इति उक्तम् अस्ति. अर्ति इत्यत्र अस्य वार्तिकस्य चिन्तनमस्ति. वदतु.
रु योगस्तिप् स्तिपा निर्दिष्ट अस्ति. रु योगस्तिप् तत्र किं भवति? चकारस्य लशक्तद्वितीयते निसर्जा भवति, पकारस्य हलन्त्यमित्यनेन निसर्जा भवति. ति इति अवशिष्यते. इदानीं शकार इस्सञ्ज्ञा इति कृत्वा तत्र सार्वधातुकः अस्ति लश दश, तत्र तिंशित् सार्वधातुकमित्यनेन. तत्र पकार अपि अस्ति, अतः रु इत्यस्य गुणः भवति, अर् इति भवति. अतः किं भवति इदानीं? गुणः भूत्वा अर् योगति अर्ति इति भवति. तदेव सूत्रे
उत्तमम्. रु धातोः रूपमेव अर्ति इति पदेन तस्मिन् सूत्रे उल्लेखः कृतः. अर्ति सर्ति अपि, सर्ति इति रूपमपि तथा एव आगतं तस्मिन् सूत्रे. अनेन सूत्रेण एव पिबति, जिघ्रति, धमति, तिष्ठति इत्यादीनि रूपाणि. पश्यति, पश्यति इत्यत्र दृश् इति धातुः खलु. दृश् धातुतः पश्यति इति रूपं सिद्ध्यति.
श्रीयोगार्थी दृश्यर्थि इति भवति. दृश्यपि तत्र दृशि इति अस्ति. तत्र तत्रापि एक निर्दिष्ट अस्ति. दृशीयोगार्थी दृश्यर्थि इति सूत्रे दत्तमस्ति इति चिन्तयामि. दृशि इति
दृशि इति इक् प्रत्ययः अस्ति. इक् तत्र ककारः इति संज्ञकः. इ एव अवशिष्यते. वस्तुतः धातुः दृशिर् इति धातुः अस्ति. इरित् धातुः अस्ति. इरः इति संज्ञावाच्या इति वार्तिकेन इर् इत्यस्य इति संज्ञा भूत्वा लौकिकधातुः दृश् तत्र अवशिष्यते. दृश्योगः इक् प्रत्ययः अस्ति. इक् प्रत्ययः सार्वधातुकः नास्ति. इक् इत्यत्र केवलम् इ एव अवशिष्यते. दृश्योगः इ दृशि. धातुनिर्देशार्थं सूत्रेषु एवं रीत्या पदानि स्थापितानि. तादृशं रूपं कथं तत्र अस्ति इति प्रश्ने सति अनेन वार्तिकेन एव एतादृशानि रूपाणि द्रष्टुं शक्नुमः. अस्मिन् दीर्घसूत्रे दृशि, अर्ति, सर्ति इति त्रीणि पदानि सन्ति. तेषां प्रसङ्गे अस्य वार्तिकस्य चिन्तनमस्ति. दृशि, अर्ति, सर्ति. दृशिस्थाने पश्य आदेशः, रुधातोः प्रसङ्गे रुच्छ आदेशः, अपि च श्रुधातुः अस्ति खलु, श्रुधातोः उल्लेखः सर्ति इति रूपेण दत्तमस्ति. श्रु इति ऋकारान्तधातुः अस्ति. गुणकार्यं दृश्यते श्रु इत्यत्र, इत्युक्ते स्तिप् प्रत्ययः अस्ति इति.
अत्र किञ्चित् निर्देशः अस्ति वा, कुत्र एक योजनीयं, कुत्र स्टिप् योजनीयं, तस्य विषये कोऽपि चिन्तनम् अस्ति वा?
भुवादिगणधातूनां प्रसङ्गे यदा वयं चिन्तनं कुर्मः तदा वयं पठितुं शक्नुमः. कुत्र इक् आयाति, कुत्र स्तिप् आयाति इति अहमपि सम्यक् न जानामि. श्रुधातोः रूपमेव सर्ति. श्रु इति धातुः अस्ति. धातुनिर्देशः सर्ति इति रूपेण अस्मिन् सूत्रे दृश्यते, किन्तु तत्र धावादेशः भवति. तदर्थमेव श्रुधातोः रूपं धावति. श्रुधातोः रूपं सरति अस्ति, किन्तु धावति रूपमपि अस्ति. धावति रूपं कथं सिद्ध्यति इत्युक्ते अनेन सूत्रेण एव. अपि च सद् धातोः रूपं सीदति. गीतायां वाक्यम् अस्ति, सीदन्ति मम गात्राणि. सीदन्ति इति प्रथमपुरुष बहुवचनरूपं सीदन्ति अस्ति, किन्तु तत्र वस्तुतः धातुः सद् अस्ति. सूत्रं तु दीर्घमस्ति. अस्तु, अग्रे सरेम. कार्यासिद्धं प्रसङ्गे अद्य किञ्चित् अवगन्तुं प्रयत्नं कुर्मः. कार्यासिद्धं सिद्धान्तस्य प्रसङ्गे कानिचन उदाहरणानि अस्माकं करपत्रे दत्तानि सन्ति. नरेश् महोदय आरम्भं करोतु.
कार्यसिद्धं पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा त्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव, यतः तेन यत् किमपि क्रियते तत् पूर्वत्र सिद्धम् इत्यनेन असिद्धमं इदं कार्यसिद्धम् इत्युच्यते.
शास्त्रासिद्धं कार्यासिद्धम् अनयोर्मध्ये, सिद्धान्तयोः मध्ये भेदः अस्ति खलु?
आम्.
आदौ शास्त्रासिद्धं प्रसङ्गे किञ्चित् वदतु.
शास्त्रासिद्धं तु अस्ति सूत्रपूर्वसिद्धम् अस्ति. पूर्वसिद्धम् अस्ति चेत् यत् सूत्रं परम् अस्ति, त्रिपाद्याम् अस्ति परं सूत्रं, तत् पूर्वसूत्र प्रति तत् असिद्धं भवति, असिद्धमस्ति. अपि च सपादसप्ताध्यायी अपि त्रिपाद्यां द्वे सूत्रे सन्ति चेत् तत्रापि सपादसप्ताध्यायीसूत्रस्य प्रति त्रिपाद्यां सूत्रं असिद्धं भवति, तत् शास्त्र असिद्धं भवति.
इत्युक्ते पूर्वसूत्रं प्रति परसूत्रम् असिद्धं. पूर्वसूत्रम् इति कथनेन सपादसप्ताध्यायी भागस्थं सूत्रमपि भवितुं शक्नोति, नो चेत् त्रिपादिसूत्रमपि भवितुं शक्नोति पूर्वसूत्रम् इति कथनेन. किन्तु परसूत्रम् इति कथनेन त्रिपादिसूत्रमेव परसूत्रं भवितुं शक्नोति. इत्युक्ते परसूत्रम् इति वदामि चेत् परत्रिपादिसूत्रमपि भवितुम् शक्नोति. पूर्वसूत्रम् इत्युक्ते सपादसप्ताध्यायीसूत्रम् अथवा त्रिपाद्यां यत् पूर्वसूत्रमस्ति तदपि भवितुम् शक्नोति. पूर्वसूत्रं प्रति परसूत्रं स्वयम् असिद्धं भवति इति तत्र सिद्धान्तः. किन्तु कार्यासिद्धम् इत्युक्ते किम्?
कार्यसिद्धम् अत्र अस्ति यत् कार्यं त्रिपाद्यां सूत्रं कारितम् अस्ति चेत् तत्र किमपि अन्यसूत्रम् आगच्छति तत् पूर्वं कारितं कार्यं न पश्यति तत् अस्ति
इत्युक्ते पूर्वमेव प्रथमतया एव परत्रिपादिसूत्रेण कार्यं सञ्जातं चेत् परत्रिपादिसूत्रेण कार्यं पूर्वमेव जातं चेत् तस्मात् परं सपादसप्ताध्यायीसूत्रम् अथवा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तत्र यत् कार्यं पूर्वं सञ्जातं तत् कार्यम् अनेन सूत्रेण न दृश्यते इत्युक्ते सपादसप्ताध्यायी भागस्थं सूत्रम् अथवा पूर्वत्रिपादिसूत्रं वा तत्र आयाति चेत् पूर्वं यत् कार्यं कृतमस्ति तत् कार्यम् अनेन सूत्रेण न दृश्यते तदर्थमेव पश्चात् पूर्वसूत्रस्य कार्यं न भवति इत्युक्ते परसूत्रस्य कार्यम् आदौ एव भवति चेत् तस्मात् परं पूर्वसूत्रस्य कार्यं न भवति कार्यासिद्धम् इति सिद्धान्तस्य अवगमनार्थम् उदाहरणानि अत्र दत्तानि भवान् पठतु अग्रे
उभौ योग अपि एचोयवयवः इत्यनेन यान्तवान्तादेशः सन्धिः उभावपि लोपः शाकल्यस्य इत्यनेन विकल्पेन वकारलोपः उभा अपि सवर्णदीर्घसन्धिः सवर्णे दीर्घः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम् अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्यासिद्धत्वात् उभा अपि
सोपानेन गच्छतु
आम् अत्र उभौ अपि उभौ योग अपि तत् सन्धिः अस्ति सन्धि एचोयवावः यान्तवन्तसन्धिः अस्ति
महोदय एचोयवायावः इति सन्धिसूत्रमस्ति एचः अयवायावः तयोः प्रसङ्गे भवान् किञ्चित् वदतु
एचः स्थाने अयवायावयः आयाति अतः एच् मध्ये ए ओ ऐ औ अस्ति ए स्थाने ऐ आगच्छति ओ स्थाने ऐ आगच्छति
ओ स्थाने औ
आम् औ आगच्छति ऐ स्थाने ऐ आगच्छति अपि च औ स्थाने आव् आगच्छति
सूत्रे तु पदद्वयमेव अस्ति खलु एचः अयवायावः इति उक्तमस्ति किन्तु अत्र अचि इति पदं पूर्वसूत्रात् अनुवृत्तं भवति अचि परे इति वक्तव्यमस्ति इत्युक्ते अच् वर्णः परः अस्ति चेदेव इदं कार्यं भवति एचः इति स्थानी भवति एचः स्थाने अयवायावः आदेशाः भवन्ति क्रमेण आदेशाः भवन्ति यथासङ्ख्यमनुदे सह समानाम् इति परिभाषासूत्रं सहकरोति तदर्थमेव एकारस्य स्थाने ऐ आदेशः ओकारस्य स्थाने औ आदेशः एवं रीत्या क्रमेण आदेशाः भवन्ति तत्र यथासङ्ख्यमनुदे सह समानाम् इति परिभाषासूत्रं सहकरोति अचि परे अस्य कार्यं भवति भूधातुतः भवति इति रूपसाधनवेलायाम् अपि अस्य सूत्रस्य कार्यम् अस्ति खलु भवति रूपं साधयतु
भवति भू अस्ति धातु तत्र भू योग भू भवादिगणे अस्ति भू योग शप् योग ति अस्ति शप् तत्र अनुबन्धलोपानन्तरं शप् अस्थीयते भू योग अ योग ति भूयोग अ तत्र अन्तसन्धिः भवति
शप् इति विकरणप्रत्ययः भूवादिगणे आयाति इति कृत्वा शप् इति विकरणप्रत्ययं निमित्तीकृत्य भू इति धातुरूपी अङ्गे गुणकार्यं भवति इत्यतः भू इत्यस्य रूपं भो भवति भोयोगः अ इति स्थितिः अस्ति वदतु
आम् भो भवति प्रथम भोयोग अ अस्ति भोयोग अ अस्ति चेत् ओकारस्य स्थाने अव् भवति अतः भव् भवति अत्र भव् योग भव्योग अयोग ति अस्ति तत् वर्णमेलने भवति भवति
बहु सम्यक् भवति इति रूपसाधनवेलायाम् अपि एचोयवायावः इति सन्धिसूत्रेण यान्तवान्तादेशसन्धिः भवति भवनम् इति रूपम् अस्ति खलु ल्युडन्तं
ल्युडन्तं तत्रापि भवनं भू अस्ति
भोय् किमर्थं भवति इत्युक्ते ल्युट् प्रत्ययः कित् नास्ति खलु ल्युट् प्रत्ययः कित् नास्ति इति कारणतः ल्युट् इति आर्धधातुकप्रत्ययं निमित्तीकृत्य भू इति धातुरूपी अङ्गे गुणकार्यं भूत्वा भो भवति भो योगः अन इति स्थितिः अस्ति तत्र यचोयवायवः इति सन्धिसूत्रेण ओकारस्य स्थाने औ आदेशः भवति इत्यतः भवन तत्र एकम् अन्यत् सूत्रमपि आवश्यकमस्ति युवोरणाकौ इति सूत्रेण यु स्थाने अन आदेशः भवति एतानि कार्याणि भूत्वा भवनम् रूपं सिद्ध्यति एवमेव भूधातुतः णिजन्तरूपं णिच् प्रत्ययस्य योजनेन भावयति इति रूपं भावयति इत्यत्र वृद्धिकार्यं भवति किमर्थम्
भावयति तत्र किमस्ति
चिन्ता मास्तु महोदय नीलं भगिनी भवती वदतु भावयति इत्यत्र वृद्धिकार्यं भूत्वा वदतु
तत्र अचोनिनिति इति सूत्रं कार्यं करोति भगिनि नित् प्रत्ययः अस्ति अतः तत्र अचोनिनिति इत्यनेन भौ भवति भौ स्थाने तत्र आव् आदेशः भवति अनन्तरम् एचो यवायावः इति सूत्रेण
बहु सम्यक् भावयति इति रूपसाधनवेलायाम् अपि भावि इति नूतनधातोः निर्माणार्थम् यचोयवायावः इति सन्धिसूत्रस्य कार्यम् अस्ति तत्र वृद्धिकार्यम् अचोणिति इति सूत्रेण वृद्धिः भूत्वा भू इत्यस्य रूपं भौ भवति भौ योगः णिच् इति स्थितिः अस्ति णिच् इत्यत्र इ एव अवशिष्यते भौ इत्यत्र औकारस्य स्थाने आव् आदेशः भवति इत्यतः भाव् भावयोगः इ भावि इति नूतनधातुः एतादृशानि कार्याणि एव णूल् प्रत्यान्तरूपसाधनवेलायामपि भवन्ति भावकः इति रूपम् अस्ति भावकः इति भूधातोः णूल् प्रत्यान्तरूपं तत्रापि अचोणिति इति सूत्रेण वृद्धिकार्यं भवति णुवुल् इति प्रत्ययः णित् खलु अतः तत्र भूधातुः अजन्तधातुः अतः अचोणिति इति सूत्रेण वृद्धिः भूत्वा तत्र भौ इति रूपं सिद्ध्यति पश्चात् एचोयवायावः इति सन्धिसूत्रेण आव् आदेशः भवति इत्यतः भावकः इति रूपं सिद्ध्यति इत्युक्ते भावयति भावकः भवनं भवति भूधातोः प्रसङ्गे बहुत्र रूपसाधनवेलायाम् अनेन सूत्रेण सन्धिकार्यं भवति इदानीं नरेश् महोदय भवान् वदतु अत्र अस्माकं प्रकृतविषयः
अत्र उभौ योग अपि तत्र यान्तवान्तसन्धि भवति चेत् उभावपि भवति अग्रे एकः सूत्रः आगच्छति लोपः शाकल्यस्य लोपः शाकल्यस्य तत्र विकल्पेन वकारस्य लोपः भवति वकारस्य लोपः भवति चेत् अन्तिम शब्दः उभा अपि भवति वकारस्य लोपः भवति
लोपः शाकल्यस्य प्रसङ्गे किञ्चित् वदतु
लोपः शाकल्यस्य तत्र तत् त्रिपाद्यां सूत्रम् अस्ति अत्र वकारस्य लोपः तत् भवति अग्रे सवर्णदीर्घसन्धि आगन्तुं शक्नोति उभा अपि
लोपः शाकल्यस्य इति सूत्रस्य प्रसङ्गे किं स्मर्तव्यम् इत्युक्ते सूत्रेषु वैयाकरणस्य नाम अस्ति चेत् तत्र विकल्पेन कार्यं भवति इति सर्वदा स्मर्तव्यं शाकल्यः इति वैयाकरणस्य नाम अस्ति इत्यतः शाकल्यस्य इति कथनेन अत्र कार्यं विकल्पेन भवति इति अर्थः अस्ति. अस्मिन् सूत्रे केवलं पदद्वयमेव अस्ति, लोपः शाकल्यस्य. लोपः इति प्रथमान्तम् अस्ति, लोपः भवति, किन्तु कस्य लोपः भवति इति अपि ज्ञातव्यम्. योः लोपः, यकारवकारयोः लोपः इति स्मर्तव्यम्. नीलं भगिनी, अस्य सूत्रस्य प्रसङ्गे भवती किं जानाति, वदतु.
तत्र अवर्णात् परः इत्युक्ते तत्र अकारः अपि च दीर्घ आकारात् परे पदान्तवकारस्य यकारस्य तत्र विकल्पेन लोपः भवति, लोपः भवति.
अत्र पदान्त यकारः अस्ति वा वकारः अस्ति वा? अस्माकम् उदाहरणे
आविति आदेशः भवति चेत् तत्र उभाव इति भवति, अन्ते वकारः अस्ति, तस्य पूर्वे दीर्घ आकारः, अतः लोपः शाकल्यस्य इति सूत्रस्य प्रसक्तिः अत्र अस्ति.
लोपः शाकल्यस्य प्रसक्तिः कदा भवति इति अपि, निमित्तं किम् इति अपि द्रष्टव्यम्. अशीपरे भवति. अश् इति प्रत्याहारे के के वर्णाः सन्ति अस्मिन् सूत्रे? भो भगो अघो अपूर्वस्य योषि इति सूत्रात् अशी इति पदम् अनुवृत्तं भवति. अशी इति पदम् अनुवृत्तं भवति इत्युक्ते अश्वर्णे परे एव कार्यं भवति. अश् इति कथनेन अच् प्लस् हश्, अच् योगः हश्. अच् प्रत्याहारे स्वराः सन्ति, हश् प्रत्याहारे मृदुव्यञ्जनानि भवन्ति. हश् इति प्रत्याहारः इति कथनेन मृदुव्यञ्जनानि इति अर्थः. खर् प्रत्याहारः इति कथनेन कर्कषव्यञ्जनानि इति अर्थः. मृदुव्यञ्जनानि एव हश् प्रत्याहारः. अच् योगः हश् एव अश् भवति. अशि परे लोपः शाकल्यस्य सूत्रस्य कार्यं भवति. पदान्तकार्यमेव इदमपि. अत्र पदमस्ति वा भवती वदतु?
उभौ इति पदमस्ति, तस्य अनन्तरं तत्र सन्धिकार्यं भूत्वा उभा भवति चेत् तदपि तत्संज्ञा तस्य अस्ति.
पुंलिङ्गे उभौ इति रूपं जायते खलु, द्विवचनरूपम्?
आम् सत्यं भगिनि,
पुंलिङ्गे द्विवचने उभौ इति रूपं दृश्यते. अश्वर्णे परे लोपः शाकल्यस्य इति सूत्रेण कार्यं विकल्पेन भवति. विकल्पेन भवति इति उक्तं चेत्, नरेश महोदय भवान् वदतु, रूपद्वयं किम्?
एकः तु विकल्पेन उभावपि अस्ति, विकल्पेन वकारस्य लोपः, अतः उभा अपि भवति.
इत्युक्ते वकारयुक्तं रूपम् एकमस्ति, वकाररहितं रूपम् अन्यदस्ति. वकाररहितं रूपं स्वीकरोतु. यद्रूपम् अत्र दृश्यते उभा अपि इत्यत्र वकारलोपः कृतः खलु. इदानीम् अत्र उभायोगः अपि इत्यत्र सवर्णदीर्घसन्धेः प्रसक्तिः अस्ति. भवान् वदतु.
सवर्णदीर्घसन्धि अस्ति चेत् अत्र उभापि भवति, परन्तु अत्र लोपः शाकल्यस्य तत् सूत्रं कार्यं कृतं, तत् न दृश्यते, तत् न दृश्यते. तत् त्रिपाद्यां लोपः शाकल्यस्य त्रिपाद्याम् अस्ति, तत् कृतं कार्यं न दृश्यते, अतः सवर्ण दीर्घसन्धि अत्र न भवति. अत्र तदा उभा अपि स्थीयते, न तु उभापि भवति.
उभापि इति रूपम् अशुद्धं रूपम्, उभा अपि इति रूपमेव तत्र तिष्ठति. तत्र सवर्णदीर्घसन्धिकार्यं न भवति. सुन्दरमहोदय भवान् वदतु, अत्र सवर्णदीर्घसन्धिकार्यं किमर्थं न भवति? प्रथमतया लोपः शाकल्यस्य इति सूत्रेण विकल्पेन वकारलोपः भवति. विकल्पेन इत्युक्ते एकस्मिन् पक्षे वकारलोपः, अन्यस्मिन् पक्षे वकारः तिष्ठति. यस्मिन् पक्षे वकारलोपः भवति तस्मिन् पक्षे उभा अपि इति रूपं सिद्ध्यति, सवर्णदीर्घसन्धिकार्यं न भवति. किमर्थम्?
लोपः शाकल्यस्य इति सूत्रं परसूत्रं 21 अष्टमाध्याये तृतीयपादे त्रिपाद्यां नवदश सूत्रम् अस्ति. अत्र अन्यत् सूत्रं तु लोपशाकल्यस्य इति विकल्पेन कृतं कार्यं अन्यत् सूत्रं न पश्यति एव इति कारणतः तत्र सवर्णदीर्घसन्धि अकसवर्णे दीर्घः इति सूत्रं लोपः शाकल्यस्य इति सूत्रेण कृतं कार्यं न पश्यति एव. किमर्थं चेत् एतत् पूर्वसूत्रमस्ति, तत् सपादसप्ताध्याय्याम् अस्ति. अकसवर्णे दीर्घः इति सूत्रं सपादसप्ताध्याय्याम् अस्ति, लोपशाकल्यस्य इति सूत्रं त्रिपाद्याम् अस्ति. इति कारणतः सवर्णदीर्घसन्धिः एतत् लोपशाकल्यस्य इति सूत्रं न सूत्रेण कृतं कार्यं न पश्यति एव. इति कारणतः तत्र उभा योगे अपि एव भवति. किमर्थं चेत् तत्र एतत् परसूत्रं सारी त्रिपादीसूत्रं न पश्यति एव इति असिद्धं भवति. इति कारणतः तत्र उभा योगे अपि उभा अपि एव भवति. सः स्वस्य कार्यं न करोति.
साधु. नरसिंहहेग्डे महोदय, भवान् वदतु अत्र सवर्णदीर्घसन्धिकार्यं किमर्थं न भवति, अत्र कार्यासिद्धम् इति सिद्धान्तः कथं प्रवर्तते?
कार्यासिद्धम् इदानीम् उभौ अपि उभयोग अपि अस्ति इति अस्ति. तत्र किं भवति, एचोय इति सूत्रेण उभा योग अपि भवति. उभावयोग अपि तत्र लोपशाकलसेचनेन वकारलोपः भवति. तत्र वकार परे अश्व प्रत्यवस्थवर्ण अ इति अस्ति इति कृत्वा वकारलोपः भवति. इदानीम् उभायोग उभा अपि इति रूपम्. अत्र उभा इत्यत्र अकारः अस्ति, अपि इत्यत्र अकारः अस्ति. सवर्णदीर्घसन्धि इत्यस्य प्रसक्तिः भवति. परन्तु एतत् सपादसप्तध्यायम् अस्ति, एतत् उभा लोपशाकल्यस्य इति त्रिपाद्याम् अस्ति. तत् सपादसप्ताध्यायं यत् सूत्रमस्ति, तत् त्रिपाद्यं यत् सूत्रं, तस्य कारितं कार्यं न पश्यति. अतः अकसवर्णदीर्घ इत्यस्य कृते उभाव इदानीमपि उभाव अपि इति एव अस्ति. इत्युक्ते अन्ते वकारः अस्ति इदानीमपि. अतः तत्र सवर्णदीर्घसन्धि प्रसक्तिः एव न भवति. किमर्थमित्युक्ते तत् उभाव अपि इत्येव पश्यति तत्र, अतः तस्य प्रसक्तिः एव न भवति. अतः कार्यं नापि न भवति, उभा अपि एव रूपं भवति.
यथा महोदयेन उक्तम्, अत्र अकः सवर्णे दीर्घः इति सूत्रम्, एचोयवायावः इति सूत्रेण कारितं कार्यं पश्यति. प्रथमतया लोपः शाकल्यस्य इति सूत्रेण कार्यं सञ्जातं खलु अत्र, इत्युक्ते लोपः शाकल्यस्य इति त्रिपादीसूत्रेण यत् कार्यं सञ्जातं तत् कार्यं न पश्यति अकः सवर्णे दीर्घः. अकः सवर्णे दीर्घः इति सपादसप्ताध्याय्याम् अस्ति. लोपः शाकल्यस्य सूत्रेण कृतं कार्यं तत्सूत्रं न पश्यति. अकः सवर्णे दीर्घः इति सूत्रं न पश्यति. अतः अत्र अकः सवर्णे दीर्घः सूत्रस्य कार्यं न कदापि भवति. उभापि इति रूपम् अशुद्धमस्ति, उभा अपि इति रूपमेव तत्र तिष्ठति. एतत् एकविध अशुद्धत्वं. शास्त्रासिद्धम् इति एकविध असिद्धत्वं, कार्यासिद्धम् इति अन्यविध असिद्धत्वं. कार्यासिद्धम् इति कथनेन तत्र अर्थः कः, पश्यन्तु चिन्तयन्तु. कार्यासिद्धम् इति लिखितमस्ति, इत्युक्ते कार्यम् असिद्धम्. अस्मिन् सन्दर्भे कस्य सूत्रस्य कार्यम् असिद्धम्? नीलं भगिनी वदतु. कार्यम् असिद्धम् इति उक्तम् अस्ति, कस्य सूत्रस्य कार्यम् असिद्धम् अस्मिन् उदाहरणे?
अत्र मुख्यतया अत्र यः लोपः शाकल्यस्य इति सूत्रम् अस्ति, तत् सूत्रं पूर्वत्र सिद्धम् इत्यस्य अधिकारे आयाति. अतः तत्र तेन किं तस्य कृते लोपः शाकल्यस्य यः सूत्रम् अस्ति, तस्य पूर्वे यानि सूत्राणि तेषां कृते लोपः शाकल्यस्य इति सूत्रं न तत्र न एव अस्ति, नैव अस्ति. अतः तत्र यदा तत्र तेन यत् कार्यं कृतं लोपः शाकल्यस्य इत्यनेन यः वकारस्य लोपः, सः वकारलोपः अकः सवर्णदीर्घः इति सूत्रस्य कृते तत्र कार्य असिद्धं, तत् कार्यमेव न तत्र तस्य कार्यं न तत्र अभवत्, अतः तत्र लोपः शाकल्यस्य इति सूत्रद्वारा यः कार्यम् अभवत् सः एव असिद्धम् अकः सवर्णे दीर्घः इति सूत्रस्य कृते, तत् कार्यं न एव भवति एव.
बहु सम्यक्. कार्यासिद्धम् इति कथनेन कार्यम् असिद्धम्. कार्यम् असिद्धम् इति वदामश्चेत् कस्य कार्यमसिद्धम् अस्मिन् उदाहरणे इति प्रश्ने सति, अत्र अकः सवर्णे दीर्घः इति सूत्रस्य दृष्ट्या लोपः शाकल्यस्य सूत्रेण कारितं कार्यमसिद्धम्. शास्त्रासिद्धं कार्यासिद्धम् इति सिद्धान्तद्वयम् उक्तम् अस्ति, बहु किमपि भेदः नास्ति. शास्त्रासिद्धं सूत्रेण पूर्वसूत्रस्य दृष्ट्या परसूत्रस्य अस्तित्वमेव नास्ति इति उक्तमस्ति. कार्यासिद्धम् इति सिद्धान्तेन पूर्वसूत्रस्य दृष्ट्या परसूत्रेण कारितं कार्यं नास्ति. अत्र अकः सवर्णे दीर्घः इति पूर्वसूत्रमस्ति, पूर्वसूत्रस्य दृष्ट्या परसूत्रेण यत् कार्यं कारितं तत् कार्यमेव नास्ति पूर्वसूत्रस्य दृष्ट्या इति तत्र अवगन्तव्यम्. एवं रीत्या किमर्थम् उक्तमस्ति इत्युक्ते बालानां सुखबोधाय कौमुदीकारेण अस्माकं सुलभावगमनार्थम् एतादृशसिद्धान्तद्वयं सिद्धान्तकौमुद्याम् उक्तमस्ति. अग्रिमम् उदाहरणं सुन्दरमहोदय भवान् पठतु.
बालः इह विसर्गसन्धि, बालः इह विसर्गसन्धिः अत्रापि तथा. बाल योगे सु योगे इह अनुबन्धलोपे सति बालस् योगे इह ससजुषोरुः इति सूत्रेण बाल योगे रु योगे इह अनुबन्धलोपे सति बालर् योगे योगे इह भो भगो अघो अपूर्वस्य योषि इति सूत्रेण बालै योगे इह इति भवति. लोपः शाकल्यस्य इति सूत्रेण इत्यनेन सूत्रेण विकल्पेन यकारः यकारलोपः बालयोगे इह इति भवति. अधुना आद्गुणः इत्यस्य मनसि आद्गुणः इति सूत्रं सपादसप्ताध्याय्याम् अस्ति. आद्गुणः इति सूत्रं सपादसप्ताध्याय्याम् अस्ति. तस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्, अतः अत्र गुणसन्धिः न प्रवर्तते कार्य असिद्धत्वात् बाल इह इति भवति. अधुना आद्गुणः इति सूत्रं सपादसप्ताध्याय्याम् अस्ति.
सोपानेन गच्छतु.
अधुना ओके ओके बाल इह बालः इह इति प्रथम स्थितिः अस्ति. अत्र बालसु योगे बालसु योगे इह इति भवति.
तत्र सु इति किमर्थम् उक्तमस्ति?
सुप् प्रत्ययः
बालः इति रूपसाधनवेलायां बालयोगः सु इति प्रथमाविभक्ति एकवचनप्रत्ययं योजयामः. बालयोगः सु योगः इह इति स्थितिः अस्ति. इदानीम् अनुबन्धलोपं करोतु.
अनुबन्धलोपं ओके बालयोगे सु योगे इह इति. अत्र उकारः उपदेश अजिनानसिक इति सूत्रेण इति संज्ञा भूत्वा लोपः भवति उकारः. तदनन्तरं सकारः एव अवशिष्यते. बालयोगे इस् बालस् योगे इह इति स्थितिः भवति. अधुना ससजुषोरुः इति सूत्रेण सकारस्य स्थाने रु इति आदेशरूपेण भवति.
अत्र बालस् इत्यस्य पदसंज्ञा अस्ति इति कारणतः एव ससजुषोरुः इति सूत्रस्य कार्यं भवति. तत्र बाल इति प्रातिपदिकम् अस्ति, तस्मात् परं प्रथमाविभक्ति एकवचनप्रत्ययः सु इति प्रत्ययः अस्ति. पदसंज्ञा अस्ति इति कारणतः एव ससजुषोरुः इति सूत्रस्य कार्यं भवति. ससजुषोरुः इति सूत्रेण किं कार्यं भवति?
ससजुषोरुः इति सूत्रेण सकारस्य स्थाने रु इति आदेशः भवति. रु
इत्यत्र अनुबन्धवर्णाः के?
रु इत्यस्य अनुबन्धवर्णाः उकारः, दट् इस् अनुनासिक उकारः एव अनुबन्धवर्णः अस्ति. अधुना उपदेशे अजनुनासिक इति सूत्रेण तस्य उकारस्य लोपः भवति.
तदा किं रूपं सिद्ध्यति तत्र?
रेपः एव अवशिष्यते. बाल इर् बालर् योगे इह इति स्थितिः भवति अधुना.
इर् इस् इति न वदामः, कथं वक्तव्यं समीचीनतया? रेपः सकारः ककारः यकारः हकारः इति वदामः. अधोभागे दण्डः अस्ति चेत् बालर्, रेफस्य अधोभागे तत्र रेखा अस्ति, इस् इर् इति न वदामः. वदतु.
बालर् बालर् योगे योगे इह तत्र रेफः रेफः भवति तत्र बालर् योगे इह. तदनन्तरं भो भगो अधो अपूर्वस्य योषि इति सूत्रेण अशि प्रत्यये अश् प्रत्यये परे
अश् इति प्रत्ययः वा प्रत्याहारः वा?
प्रत्याहारः. ओके, अश् प्रत्याहारे परे.
अश् प्रत्याहारे के के वर्णाः सन्ति?
अच् 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 प्रत्याहारः प्लस् हश् प्रकारः प्रत्याहारः.
बहु सम्यक्. हश् प्रत्याहारः इति कथनेन मृदु व्यञ्जनानि, अच् प्रत्याहारः इति कथनेन सर्वे स्वराः.
सर्वे स्वराः देन् मृदु व्यञ्जनानि.
अत्र कः वर्णः अस्ति? अश्वर्णः.
अश्वर्णः अत्र रेफः एव अश्वर्णः अस्ति. सोरि, इह इकारः इकारः एव अश्वर्णः अस्ति.
इकारः एव अश्वर्णः. सर्वे स्वराः अन्तर्भूताः अश्प्रत्याहारे, अच्वर्णाः अन्तर्भूताः अश्प्रत्याहारे. अत्र अच्वर्णः इकारः अस्ति. अशिपरे वदतु.
अशिपरे अशिपरे रेपस्य यकार रेपस्य स्थाने यकारः आदेशरूपेण भवति.
सूत्रे योषि इति उक्तमस्ति. योषि इत्यत्र सन्धिकार्याणि सन्ति खलु?
यः अशि यः अशि इति अर्थः.
यः इति कथनेन प्रथमान्तमस्ति इत्यतः यकारादेशः भवति.
यकारः आदेशः भवति अशि प्रत्याहारे परे.
अत्र भो भगो अघो अपूर्वस्य इति लिखितमस्ति. भो भगो अघो इत्येषां प्रसङ्गे भवान् किं जानाति?
भो इत्युक्ते जानामि, परन्तु अधुना किञ्चित् क्लेशः भवति. अपूर्वस्य इत्युक्ते अ इति पूर्वं भवति, अकारः पूर्वं भवति चेत् एव. बालै अत्र बाल इत्यस्य अकारः अस्ति किल पूर्वं, तदेव अकारः अपूर्वस्य इति जानामि. भो भगो अघो
अत्र तु भो भगो अघो एतेषां प्रसङ्गः नास्ति.
नास्ति. आम्, आ इति पूर्वस्य अकारः अस्ति. अत्र बाल बाल् योगे अ तत्र अकारः अस्ति. आ इति पूर्वस्य अस्ति इति कारणेन प्रथमनिमित्तम् अकारः पूर्वं भवितव्यम् अपूर्वस्य. तदनन्तरं इकारः इत्युक्ते हश् सोरि अश् प्रत्याहारः प्रत्याहारे स्थितः इकारः तदनन्तरम् अस्ति. तदपि निमित्तं पूरितं तस्मात् कारणात् यकारः आदेशरूपेण आगच्छति अत्र.
भो भगो अघो एतेषां प्रसङ्गः अत्र नास्ति. सूत्रे अपूर्वस्य योषि इति स्वीकरणीयः. अत्र अवर्णात्
अवर्णात् परम् अश् प्रत्याहारः अस्ति चेत् सोरि रेफस्य स्थाने यकारः आदेशरूपेण आगच्छति.
उत्तमं. सम्बोधनार्थं भो राम एवं वदामः खलु? इत्युक्ते सम्बोधनप्रसङ्गे वदामः. भोः प्रसङ्गे अपि अस्य सूत्रस्य प्रसक्तिः अस्ति.
भगः इत्यस्य प्रसङ्गे अपि अस्ति. भगः भगो इति कथनेन भगः इत्यस्य प्रसङ्गे अपि तस्य सूत्रं कार्यं करोति. भगः
भगः नास्ति, भगोः.
भगोः वा? ओके, भगोः. ओके,
एतानि त्रीणि पदानि सम्बोधनार्थं तेषां प्रयोगं कुर्मः. अश्प्रत्याहारस्थवर्णः परे अस्ति इति कारणतः यकारादेशः भवति.
अत्र अशि तु जानामि इ अस्ति अत्र रेफः स्थाने कथं यः आगच्छति तत्तु न वदति भो भगो अघो अपूर्वस्य योषि
रोः इति पदस्य अनुवृत्तिः पूर्वसूत्रात् अस्मिन् सूत्रे अस्ति साधारणतया अनुवृत्तिसहितसूत्रं पठनीयं खलु
अस्तु अस्तु
अनुवृत्तिसहितसूत्रं किम् अस्ति इत्युक्ते भो भगो अघो अपूर्वस्य पदस्य रोः अशि यः रोः इति पदं पूर्वसूत्रात् अस्मिन् सूत्रे अनुवृत्तं भवति
अस्तु अस्तु धन्यवादः
सुन्दरमहोदय वदतु
बालै योगे इह इति स्थितिः भवति अधुना लोपः शाकल्यस्य इति सूत्रम् अत्र कार्यं करोति सः त्रिपादिसूत्रम् अस्ति तस्य कार्यं कृतं चेत् तत्र विकल्पेन यकारः लोपः भवति तदनन्तरं बालयोगे इह इत्येव स्थितिः भवति अधुना आद्गुणः इति सूत्रं सपादसप्ताध्यायी सूत्रम् अस्ति सः आगत्य कार्यं कर्तुं उद्युक्तः भवति परन्तु तस्य कृते त्रिपादिसूत्रं लोपशाकल्यस्य इति त्रिपादिसूत्रं तस्य कृते असिद्धं भवति तदेन तत् सूत्रेण लोपशाकल्यस्य इति सूत्रेण कृतं कार्यम् अधुना आद्गुणः इति सूत्रस्य कृते नास्ति एव असिद्धं भवति इति कारणतः सः तत् कार्यं न पश्यति एव अधुना बालै योगे इह तदेव एतत् पश्यति आद्गुणः इति सूत्रम्
महोदय लोपः शाकल्यस्य कार्यं कथं भवति रूपद्वयं किम्
लोपः शाकल्यस्य ओके शाकल्यमुनिना कृतं लोपं कार्यं तदेव शाकल्यमुनिना कृतं लोपकार्यम्
अत्र मम प्रश्नः तु लोपः शाकल्यस्य विकल्पेन तस्य कार्यं भवति इत्यतः रूपद्वयं किम्
रूपद्वयम् ओके एकरूपं बालै योगे इह द्वितीयं रूपं बालयोगे इह यकारसहितं रूपम् एकं द्वितीयं रूपं यकाररहितं रूपं तदेव बालै योगे इह एवं बालयोगे इह
यकाररहितं रूपं स्वीकृत्य वदतु
यकाररहितं रूपं स्वीकृत्य बाल इह इति रूपं सिद्ध्यति अधुना आद्गुणः इति सूत्रं तत्र आगत्य कार्यं कर्तुम् उद्युक्तः भवति परन्तु आद्गुणः इति सूत्रं यकाररहितं सूत्रं न पश्यति यकाररहितं सूत्रं न सोरि रूपं न पश्यति इति कारणतः सः बालै योगे इह इत्येव रूपं तत् पश्यति इति कारणतः सः कार्यं कर्तुम् अशक्यं भवति इति कारणतः बालयोगे इह एव भवति बालेह इति गुणसहितं रूपं न भवति बाल इह इत्येव अन्तिमं रूपं सिद्ध्यति
बहु सम्यक् यथा महोदयेन उक्तमस्ति अत्र बालेह इति रूपम् असाधुरूपं बाल इह इति रूपमेव तत्र तिष्ठति बालेह रूपं तु नास्ति एव बाल इह यत्र यकाररहितं रूपम् अस्ति तत्र आद्गुणः सूत्रस्य प्रसक्तिः अस्ति चेदपि तत् सूत्रं पूर्वसूत्रेण कारितं कार्यम् इत्युक्ते लोपः शाकल्यस्य सूत्रेण कारितं कार्यं न पश्यति इदानीं पश्यन्तु आद्गुणः इति सूत्रं लोपः शाकल्यस्य सूत्रस्य कार्यं न पश्यति भो भगो अघो अपूर्वस्य योषि इति सूत्रेण कारितं कार्यमपि न पश्यति ससजुषोरुः सूत्रेण कारितं कार्यमपि न पश्यति अत्र आद्गुणः इति सूत्रं केवलं बालस् इह इति रूपमेव पश्यति किमर्थं तथा लोपः शाकल्यस्य भो भगो अघो अपूर्वस्य योषि ससजुषोरुः इमानि त्रीणि सूत्राणि त्रिपाद्यां सन्ति आद्गुणः इति सूत्रम् एतेषां त्रयाणां सूत्राणां कार्यमपि न पश्यति. आद्गुणः इति सूत्रं केवलं बालस्योगः इह इति रूपमेव पश्यति. किमर्थं चेत् तानि त्रीणि सूत्राणि त्रिपादिस्थानि. लोपः सकल्यस्य इति सूत्रेण विकल्पेन यत् कार्यं कृतं तत् कार्यम् आद्गुणः इति सूत्रं न पश्यति. इत्युक्ते यकारः तत्र अस्ति चेत् तत्र आद्गुणः इति सूत्रस्य प्रसक्तिः न भवति. इति कारणतः तत्र आद्गुणः इति सूत्रेण कार्यं न भवति. बाल इह इति रूपमेव तत्र तिष्ठति. गुणसन्धिकार्यं न भवति. सारांशः ज्ञातव्यः. सारांशः कः? नीलं भगिनी भवती वदतु. उदाहरणद्वयेन भवती किम् अवगतवती?
अत्र कार्यसिद्धं विषये तत्र यः उदाहरणमस्ति बालयोग इह, तत्र विसर्गः यः अस्ति तत्र पूर्वे तु तत्र सुप् इति प्रत्ययः, सुप् इति एकवचनस्य प्रत्ययः अस्ति, सुप् प्रत्ययः. सो तत्र बालस्योग अनुबन्धानां लोपानन्तरं तत्र बालस्य योग इह भवति चेत् तत्र एतादृशस्थित्यां तत्र ससजुः रुः इति सूत्रस्य प्रसक्तिः भवति. सूत्रम् अस्ति त्रिपाद्यां, ससजुः रुः इति सूत्रं त्रिपाद्याम् अस्ति. तेन कार्यं भवति चेत् तत्र सकारस्य ऋत्वं भवति चेत् अनन्तरम् अपि अनुबन्धलोपानन्तरं तत्र तत्र रकारः तिष्ठति. इदानीं तत्र यः सामान्यतया वयं खर अवसानविसर्जनीयः इति सूत्रं तत्र तस्य प्रयोगः अस्माभिः तत्र वयं सामान्यतया तत् सूत्रं प्रयोगं कुर्मः. परन्तु अत्र इह अस्ति, अत्र मृदुव्यञ्जनपरे अस्ति, अवसानः अपि नास्ति, अपि च खर्व्यञ्जनः नास्ति. अतः अत्र द्वितीयसूत्रस्य प्रसक्ति भो भगो अधो अपूर्वस्य. तत् सूत्रमपि त्रिपाद्याम् अस्ति, भो भगो तदपि त्रिपादीसूत्रं. परन्तु ससजोः रुः इति सूत्रस्य अनन्तरम् अस्ति. इत्युक्ते भो भगो अधो अपूर्वस्य अघौ इति अपूर्वस्य कृते तत्र ऋत्वकार्यम् असिद्धं नास्ति. किमर्थं चेत् ससजोहुरु इति पूर्वसूत्रं, भो भगो परसूत्रं, ततः तत्र रकारः तत्र तस्य कृते सिद्धम् अस्ति. सो तत्र अनन्तरं तत्र रकारस्य स्थाने तत्र यकारादेशः भवति. यकारादेशः भवति चेत् तत्र लोपः शाकल्यस्य इति बालयः अस्ति, पदान्त यकारः अस्ति, अपि च तस्य पूर्वे अकारः अस्ति. अतः लोपः शाकल्यस्य इत्यनेन विकल्पकार्यं भवति चेत् तत्र एकस्मिन् पक्षे तत्र बालयोग इह भवति. सो बालयोग इह भवति चेत् तत्र सामान्यतया पश्यामः चेत् शास्त्रं न जानीमः चेत् तत्र आद्गुणः इति सूत्रस्य प्रसक्तिः दृश्यते. परन्तु यः अत्र लोपः शाकल्यस्य द्वारा यत् कार्यं कृतं यकारलोपः, सः कार्य असिद्धम् अस्ति. तत् कार्यम् आद्गुणः सूत्रस्य कृते न दृश्यते. सो आद्गुणः इति सूत्रस्य कृते न केवलं लोपः शाकल्यस्य इति सूत्रस्य कार्यम् असिद्धं, परन्तु तत्र भो भगो अगो इति सूत्रस्य कार्यमपि असिद्धं, ससजोः रुः इति सूत्रस्य कार्यमपि असिद्धम्. सो आद्गुणः किं पश्यति चेत् तत्र बालस्योग इह एव पश्यति. सो तत्र बालस्योगः इह पश्यति चेत् तत्र आद्गुणः इति सूत्रस्य कार्यमेव न अस्ति. अतः तत्र अत्र एकं प्रश्नः अस्ति भगिनि, यदि वयं वाक्ये लेखितुम् इच्छामः चेत् तत्र बालः विसर्गयुक्तरूपं लेखनीयं वा तत्र बालयोग इह लेखनीयं, विसर्गरहितरूपं लेखनीयं, शुद्धरूपं किम् अस्ति अत्र?
अस्माकं विवक्षानुगुणं वाक्ये तु कुत्र कुत्र सन्धिकार्यं नित्यरूपेण भवति इति प्रश्ने सति एका कारिका अस्ति. यत्र यत्र उपसर्गः अस्ति तत्र सन्धिः नित्यः, यत्र समासः अस्ति तत्र सन्धिः नित्यः. वाक्ये तु अस्माकं विवक्षानुगुणं सन्धिकार्यं कृत्वापि लेखितुं शक्नुमः, अकृत्वापि लेखितुं शक्नुमः. अस्माकं विवक्षा एव.
अस्तु,
एकः प्रश्नः अस्ति भगिनि. अत्रापि ससजुषोरुः प्रथमकार्यं करोति, तत् त्रिपाद्याम् अस्ति. यथा वयं मनोरथविषये पठितवन्तः, तत्र अग्रे किञ्चित् सूत्राणि सन्ति, परन्तु तत्र आश्रयत्वात् सिद्धत्वात् अभवत्। अत्रापि तत् अस्ति ससजुषुरो रुः कार्यं करोति, तदोपरान्त भो भगो अधो आगच्छति, अपि च लोपः शाकल्यस्य आगच्छति, तत् आश्रत्यत्वात् अस्ति।
नीलं भगिनी वदतु, ससजुषुरुः भो भगो अघो अपूर्वस्य योषि अनयोर्मध्ये किं चिन्तनम्?
अत्र महोदय तथा नास्ति, अत्र आश्रयत्वं नास्ति, इत्युक्ते तत्र संख्या द्रष्टव्यं। ससजुषुरुः इति अष्टमध्याये द्वितीयपादे अस्ति, अनन्तरं यः खरावसानविसर्जनीयः, अपि च भो 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 भगो अधो इति अष्टमध्याये तृतीयपादे अस्ति। अतः तत्र पूर्वे यत् कार्यं कृतं तत् दृश्यते, तत्तु असिद्धं नास्ति, परकार्यम् एव असिद्धं। सो ससजुषुरुः इति सूत्रद्वारा यः ऋत्वं भवति सः असिद्धम् अस्ति, कार्य तत् कार्यं भो भो भगो अधोस् इति सूत्रस्य कृते कार्यसिद्धम् अस्ति, तत्र रकारः दृश्यते, तत् असिद्धं नास्ति, अतः अत्र तादृश चिन्तनं नास्ति। अत्र तु पूर्वसूत्रेण तत् कार्यम्, अनन्तरं परसूत्रः।
अस्तु अस्तु।
ससजुषुरुः इति द्वितीयपादे अस्ति, भो भगो अघो अपूर्वस्य योषि सूत्रम् अष्टमाध्यायस्य तृतीयपादे अस्ति। आश्रयत्वात् सिद्धत्वम् इति सिद्धान्तः अत्र न प्रवर्तते। इदानीं भवती वदतु भगिनि, समापयतु।
भगिनि, तत्र यः पूर्वत्र सिद्धम् इत्यस्य यः सिद्धान्तः अस्ति, वयं दृष्टवन्तः तत्र तत्र चिन्तनद्वयम् अस्ति, एकमस्ति शास्त्रसिद्धं, तत्तु सरलम् अस्ति। शास्त्रसिद्धम् इति वदामः चेत् एकस्मिन् सोपाने सूत्रद्वयम् आयातिश्चेत् तत्र तत्र वयं संख्या दृष्ट्वा ज्ञातुं शक्यते कः सूत्रं सिद्धं कः सूत्रम् असिद्धं। यदि यदि सूत्रद्वयम्, एकसूत्र सपादसप्ताध्यायी अस्ति, अपि च द्वितीयसूत्र त्रिपाद्याम् अस्ति चेत् तत्र प्रथमे तत्र सपादसप्ताध्यायी सूत्रद्वारा कार्यं करणीयं। परन्तु यदि सूत्रद्वयम् एकस्मिन् स्थले ये सूत्रद्वयम् आयाति चेत् तत्र त्रिपादीसूत्रम् अस्ति चेत् पूर्वसूत्रेण प्रथमे कार्यं करणीयं, तत्तु शास्त्र असिद्धं। परन्तु कार्य असिद्धस्य विषये तत्र बहु चिन्तनम् अस्ति। एकं तु तत्र यः कार्य पूर्वसूत्रद्वारा कार्यं करणीयम्, अपि च यः यदि तत्र अनन्तरं द्वितीयसोपाने अनन्तरं सोपानेषु तत्र कोऽपि सपादसप्ताध्यायी सूत्रस्य प्रसक्तिः भवति चेत् तत्र पूर्वे यत् सूत्रेण कार्यम् अभवत् सः कुत्रचित् असिद्धं भवति। यदि तत् त्रिपादीसूत्रद्वारा कार्यं कृतम् अस्ति चेत् तत्र असिद्धं भवति। परन्तु तत्र अपवादः वयं दृष्टवन्तः पूर्वस्मिन् वर्गे, तत्र आश्रयत्वात् तत्र कुत्रचित् कार्यं सिद्धम् अपि भवति। किमर्थं चेत् अनन्तरं यः सूत्रम् आगत्य तस्य यः प्रयोगम् अस्ति तस्य आश्रयत्वात् सः सिद्धं भवति। अतः तत्र कार्यसिद्धस्य विषये तत्र बहु किमपि चिन्तनम् अस्ति, तद् द्रष्टव्यम्।
बहु सम्यक्। कार्यसिद्धम् इति कथनेन अस्मिन् उदाहरणे लोपः शाकल्यस्य इति सूत्रेण यत् कार्यं कृतं तत् कार्यम् आद्गुणः इति सूत्रं न पश्यति इत्यतः अस्मिन् सन्दर्भे आद्गुणः सूत्रेण गुणसन्धिकार्यं न भवति, अतः बालेह इति रूपं न सिद्ध्यति, बालयिह इति अन्तिमं रूपं तत्र तिष्ठति। सरलरीत्या वक्तव्यं चेत् परत्रिपादिसूत्रेण कारितं कार्यं पूर्वसूत्रं न पश्यति, परत्रिपादिसूत्रेण कारितं कार्यं पूर्वसूत्रं न पश्यति इत्यतः पूर्वसूत्रस्य कार्यम् अत्र न भवति। अत्र पूर्वसूत्रम् आद्गुणः, अतः पूर्वसूत्रस्य कार्यम् अत्र न भवति। इत्युक्ते लोपः शाकल्यस्य इति सूत्रेण कारितं कार्यम् आद्गुणः न पश्यति, तस्य कार्यमेव असिद्धमस्ति। अग्रे सरेम नरसिंह हेग्डे महोदय, भवान् पठतु अग्रिमपरिच्छेदे किं दत्तम्।
भट्टोदी दीक्षित् महाभागेन सिद्धान्तकौमुद्याः लेखकेन इदं सिद्धान्तद्वयं प्रणीतं, सर्वे न मन्यन्ते, तेषु माता अन्यतमा। तथापि अत्र प्रतिपादितम्, अतः अनेन विषयस्य बोधनार्थं सौकर्यं विद्यते इति भाति. अत्र भट्टोजी दीक्षित् महाभागेन सिद्धान्तकौमुद्याः लेखकः अस्ति. इदं सिद्धान्तद्वयं प्रणीतं, सिद्धान्तद्वयम् इत्युक्ते कार्यसिद्धं शास्त्रसिद्धम्. एतत् सर्वे न मन्यन्ते, सर्वे वैयाकरणाः न मन्यन्ते, तेषु माता अन्यतमा, माता अपि न मन्यन्ते. तथापि अत्र किमर्थं दत्तमस्ति, अत्र प्रतिपादितं किमर्थं, इत्युक्ते अनेन विषयस्य बोधार्थं सौकर्यं विद्यते. एतस्य विषयस्य बोधनार्थं सौकर्यं विद्यते इति भाति इति स्वरूप महोदयं लिखितमस्ति अत्र. यतोहि माता न मन्यन्ते, तत्र तदापि एतद् दत्तमस्ति, तत्र किञ्चित् सौकर्यं विद्यते इति कृत्वा अत्र दत्तमस्ति इति स्वरूपमहोदयेन दत्तमस्ति.
सुन्दरमहोदय, भवान् वदतु, बोधार्थम् इति भिन्नं, बोधनार्थम् इति भिन्नं खलु?
आम् आम्, बोधार्थम् इति भिन्नं, बोधनम् इत्युक्ते तत्र ल्युट् प्रत्ययस्य
रूपमस्ति. बोधार्थम् इत्यत्र बुद्धधातोः खञन्तरूपं बोधः,
बोधः घञ् घञ् प्रत्ययस्य योजनेन बोधः इति भवति, बोधः तदर्थम् एव.
बोधार्थम् इति कथनेन बोधाय इदम् इति विग्रहवाक्यं वक्तव्यं भवति. चतुर्थी तत्पुरुषसमासः अस्ति अस्मिन् पदे, बोधनाय इदम् इति विग्रहवाक्यं भवति. बोधनम् इति ल्युडन्तपदमस्ति. सौकर्यम् इत्यत्र किं विग्रहवाक्यं?
सुकरस्य भावः सौकर्यं, सुकरस्य भावः सौकर्यम्, अत्र तद्धितप्रत्ययस्य योजनेन सौकर्यम् इति रूपं सिद्ध्यति.
विद् धातोः रूपमेव विद्यते, कर्तरिरूपं वा कर्मणि रूपं वा?
विद्यते इति कर्तरिरूपमेव, तत्र विद् धातुतः तत्र आत्मनेपदीरूपम् अस्ति. विद्यते इति आत्मनेपदीरूपम्,
विद्यते इति रूपं कर्तरिरूपमपि तदेव, कर्मणि रूपमपि तदेव. किमर्थं तथा इत्युक्ते, विद् धातुः दिवादिगणे अस्ति इति चिन्तयतु. विद् धातुः दिवादिगणे अस्ति चेत् किं रूपं सिद्ध्यति?
दिवादिभ्यः श्यन्, श्यन् इति सूत्रेण शकार नकारयोः चित्संज्ञा लोपः भवति, तदनन्तरं यकारः एव अवशिष्यते. तत्र विद् योगे योग्यते, विद्यते इति रूपं सिद्ध्यति.
विद् धातुः दिवादिगणे अस्ति सत्तायाम् इत्यस्मिन् अर्थे विद् धातुः दिवादिगणे अस्ति. दिवादिगणे अस्ति इति कारणतः दिवादिभ्यः शन् इति सूत्रेण शन् विकरणप्रत्ययः आयति. इत्यतः शन् इति विकरणप्रत्ययात् या अवशिष्यते. कर्तरीरूपमपि विद्यते, कर्मणि लट् रूपमपि विद्यते एव. इत्युक्ते दिवादिगणीयधातूनां प्रसङ्गे कर्तरीलट् रूपं कर्मणि लट् रूपं समानमस्ति इति अवगन्तुं शक्नुमः. आत्मनेपदीधातूनां प्रसङ्गे एव वदन्ती अस्मि, अयं धातुः आत्मनेपदीधातुः इत्यतः विद्यते इति रूपं विद् धातोः लट्टिरूपं. प्रतिपादितम् इति पदम् अस्ति, प्रतिपादितम् इत्यत्र किमस्ति?
प्रतिपादितम् इत्युक्ते प्रति इति उपसर्ग, प्रति इति उपसर्ग योजने पद् धातोः, पद् धातोः तप्रत्ययस्य रूपम् अस्ति पादितः. प्रतियोगे पादितः, प्रतिपादितम् इति.
तत्र इतोपि कः प्रत्ययः अस्ति?
णिक्ष् प्रत्ययः अपि अस्ति, णिजन्तम् अपि अस्ति, पादितम् इति पद् योगे णिच् योगे इक्तप्रत्ययः भवति. सो णिच् प्रत्ययः अपि अस्ति, प्रतिपादितम्.
बहु सम्यक्, साधु महोदय. प्रतिपादितम् इत्यत्र प्रति उपसर्गः, पद् धातुः, णिच् प्रत्ययः अस्ति, पादि इति नूतनधातुः अस्ति, कृताप्रत्ययान्तरूपम् अस्ति. अणिजन्तानां प्रसङ्गे अपि सर्वाणि आर्धधातुककृदन्तरूपाणि सिद्ध्यन्ति. अणिजन्तानां प्रसङ्गे अपि आर्धधातुककृदन्तरूपाणि साधयितुं शक्नुमः. अत्र तु णिच् प्रत्ययः अपि अस्ति. भाति, सः धातुः कस्मिन् गणे अस्ति?
भाति अदादिगणे अस्ति इति मन्ये. भाति
अदादिगणे विकरणप्रत्ययस्य लुक् भवति खलु?
लुक् भवति, आम् आम्. भा इति धातुः अस्ति, भा योगे ति इति भवति, तिप् इति भवति, तदनन्तरं भा योगे लुक् लोपः भवति, तदनन्तरं ति एव अवशिष्यते, भाति इति अन्तिमं रूपं सिद्ध्यति।
भा धातुः अदादिगणे अस्ति, अदिप्रभृतिभ्यः शपः इति सूत्रेण शपः लुक् भवति इत्यतः शप् विकरणप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति, भायोगः ति भाति इति रूपं। पा अस्ति चेत् पाति, एते धातवः आकारान्ताः, अतः ईदृशानि रूपाणि साधयितुं शक्नुमः। अग्रिमे परिच्छेदे सारांशः उक्तः। नरसिंह हेग्डेमहोदय, भवान् पठित्वा वदतु।
देयं यत् पूर्वत्र सिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्यस्य अपवादो नास्ति। विप्रतिषेधे परं कार्यम् इत्यनेन परशास्त्रस्य कार्यं भवति। पूर्वत्र सिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धं सूत्रां विरुद्धम्। अत्र सामान्य विशेषयो उदाहरणं न, अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः इत्याशेन किं कृतं। विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादसप्ताध्याय्याम् एव प्रवर्तते, त्रिपाद्यां विप्रतिषेधविचारः नास्ति, यतोहि तत्र परशास्त्रमेव नास्ति। उत्तरस्य अभावात् परशास्त्राणाम् अभावात् अपि च पूर्वत्र सिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम्। अत्र पूर्वोत्तरसिद्धम् इति सूत्राणां बलाबलविषये पूर्वोत्तरसिद्धम् अनन्तरं विप्रतिषेधे परं कार्यम् इति इत्यस्य पूर्वोत्तरसिद्धम् इति विप्रतिषेधे परं कार्यम् इत्यस्य अपवादः वा इति प्रश्ने सति तस्य अपवादः नास्ति इति अत्र लिखितमस्ति। विप्रतिषेधे परं कार्यम् इत्यनेन परशास्त्रस्य कार्यं भवति। वयं जानीमः तत्र सपादसप्ताध्यायं यदि एकस्मिन् स्थले एकस्मिन् क्षणे सूत्रद्वयम् आयते चेत् द्वयमपि सपादसप्ताध्यायम् अस्ति चेत् तत्र विप्रतिषेध तयोः मध्ये विप्रतिषेधमस्ति इत्युक्ते तुल्यबलम् अस्ति चेत् अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेत् तत्र परसत्यं कार्यं करोति इति जानीमः। परन्तु पूर्वत्र सिद्धम् इत्यस्य भूमिका भिन्ना अस्ति। तत्र केवलं पूर्वत्र सिद्धम् इति त्रिपाद्यमेव कार्यं करोति। पूर्वत्र असिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् इत्युक्ते विप्रतिषेधे परं कार्यम् अनन्तरं पूर्वशास्त्रं पूर्वत्र सिद्धम् इत्यस्य विरोधाभासः अस्ति। एकं वदति परशास्त्रं बलवत्ति, एकं वदति परसूत्रं बलहीनम् इति, तादृशमस्ति सूत्रां विरुद्धम्। अत्र सामान्यविशेषण विशेष उदाहरणं न, अत्र सामान्यविशेषयो उदाहरणं न। अत्र इत्युक्ते विप्रसिद्धे परं कार्यम् अनन्तरं पूर्वत्र सिद्धम् इति वयं वि केनाट् कम्पेर् देम् आन् सेम् प्लाट्फार्म्। अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः, वि शुड् एनलैज् देम् सेपरेट्लि इत्याशयेन किं कृतम्।
अत्र मुद्रणदोषः अस्ति, अत्र किं पदं वक्तव्यम् इत्याशयेन
इति आशयेन
इति आशयेन आशा इति अस्ति चेत् इत्याशया खलु
आमाम् इत्याशय
मुद्रणदोषः।
विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादशब्दाध्यायम् एव प्रवर्तते। अत्र पृथक् पृथक् मार्गः किं कृतमस्ति पाणिना इत्युक्ते विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादशब्दाध्यायम् अनन्तरं पूर्वत्र सिद्धमिति केवलं त्रिपाद्यं। किमर्थमित्युक्ते त्रिपाद्यां विप्रतिषेधविचारः नास्ति एव। विप्रतिषेध इत्युक्ते सूत्राणां तत्र तुल्यबलविरोधः, तादृशपरिस्थितिः तत्र नास्ति त्रिपाद्यम् इत्युक्ते। किमर्थमित्युक्ते तत्र परशास्त्रस्य कोऽपि परशास्त्रमेव असिद्धम् इति वदति, सः परशास्त्रमेव नास्ति तत्र। अतः परसूत्रं बलवत् इति तस्य प्रसक्तिः एव न भवति त्रिपाद्यम्। अतः तत् पूर्वतः सिद्धमेव तत्र त्रिपाद्यां स्थित्वा विप्रतिषेधे परं कार्यं केवलं सपादसप्ताध्यायम् इति पाणिनिमहर्षिणा कृतम् इति अस्ति महोदय। अहं चिन्तयामि सम्यक् न जानामि।
बहु सम्यक्। नीलं भगिनी भवती वदतु, अस्मिन् परिच्छेदे किं दत्तं सारांशः।
अत्र विप्रतिषेधे परं कार्यम् इति सूत्रस्य अपि च पूर्वत्र सिद्धं पूर्वत्र सिद्धम् इति सूत्रस्य विषये तत्र भेदः कः इति तत्र अस्मिन् परिच्छेदे दत्तम्। अत्र सारांशः अस्ति विप्रतिषेध परं कार्यम् इति यः सूत्रम् अस्ति तस्य उपयोगिता केवलं सपादसप्ताध्याय्यामेव, तत्र त्रिपाद्याम् एतस्य विषये चिन्तनमेव नास्ति। किमर्थं चेत् प्रत्येकस्य त्रिपाद्यां यानि सूत्राणि प्रत्येकस्य सूत्रस्य कृते परं सर्वाणि परं सूत्राणि असिद्धानि। तत्र विप्रतिषेधः इति तत्र तुल्यबलः एव नास्ति, सूत्रान् सूत्रयोः मध्ये तुल्यबलः एव नास्ति। इत्युक्ते तत्र अष्टमध्याये द्वितीयपादे द्वितीयसूत्रं तत् किं तस्य चिन्तनं किम् अस्ति, अनन्तरं कोऽपि सूत्रमेव न अस्ति। तथैव तृतीयसूत्रस्य कृते अनन्तरं यानि सूत्राणि तानि सूत्राणि सर्वाणि तेषाम् अस्तित्वम् एव नास्ति। अतः तत्र तुल्यबलः इति सूत्रयोः मध्ये तुल्यबलः एव नास्ति, अतः तत्र विप्रतिषेधे परं कार्यम् इति सूत्रस्य तत्र कोऽपि चिन्तनमेव नास्ति। किमर्थं चेत् परं सर्वाणि परं सूत्राणि तत्र असिद्धानि भवति, अतः तत्र विप्रतिषेधः इति यः सूत्रम् अस्ति परिभाषासूत्रं सः केवलं सपादशब्दाध्याय्याम् एव प्रवर्तते, पूर्वत्र सिद्धम् इति यः अस्ति सः त्रिपाद्यां तस्य अधिकारः वर्तते।
बहु सम्यक्। अत्र तु उत्सर्ग अपवादसम्बन्धः नास्ति, अनयोः सूत्रयोः मध्ये सामान्यविशेषचिन्तनं नास्ति। विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य कार्यं भवति इति उक्तमस्ति, किन्तु पूर्वत्रासिद्धम् इति नियमेन परशास्त्रस्य अस्तित्वमेव नास्ति इति उक्तमस्ति। परशास्त्रेण कारितं कार्यमेव पूर्वसूत्रं न पश्यति इति सिद्धान्तः तत्र अस्ति। इत्युक्ते पूर्वत्रासिद्धम् इति सिद्धान्तेन परसूत्रमेव नास्ति, पूर्वसूत्रस्य दृष्ट्या परसूत्रमेव नास्ति इति उक्तमस्ति। त्रिपाद्याम् एव पूर्वत्रासिद्धम् इत्यस्य अधिकारः अस्ति। इत्युक्ते द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः। विप्रतिषेधे परं कार्यम् इति सूत्रं सपादसप्ताध्याय्याम् एव कार्यं करोति, विप्रतिषेधे परं कार्यं सूत्रस्य कार्यक्षेत्रं सपादसप्ताध्याय्याम् एव अस्ति, त्रिपाद्यां पूर्वत्रासिद्धम् इत्यस्य अधिकारः अस्ति। नरेश महोदय, भवान् वदतु इतोपि किं ज्ञातव्यम्।
अहं तु अवगतं, विप्रतिषेधे परं कार्यं तत् सपादसप्ताध्याय्यां कार्यं करोति, परन्तु तत्र तुल्यबलविरोध तत् चिन्तनम् अस्ति। पूर्वत्र सिद्धं तत् केवलं त्रिपाद्यां अस्ति, तत्र कोऽपि तुल्यबलविरोधः नास्ति। परं सूत्रं असिद्धं भवति, अतः तस्य कोऽपि कार्यं न भवति।
अत्र एकः प्रश्नः अस्ति, विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः त्रिपाद्याम् अपि अस्ति, किन्तु त्रिपाद्यां विप्रतिषेधे परं कार्यं सूत्रस्य प्राप्तिः न भवति, किमर्थम्? सुन्दरमहोदय वदतु।
विप्रतिषेधे परं कार्यम् इत्यस्य प्राप्तिः न भवति, किमर्थं चेत् विप्रतिषेधे प्रथम परं कार्यम् इति विचारः केवलं सपादसप्ताध्याय्यामेव भवति। किमर्थं चेत् तत्र परशास्त्रस्य अभावः अस्ति।
अत्र मम प्रश्नः, त्रिपाद्यां विप्रतिषेधे परं कार्यं सूत्रस्य प्रसक्तिरस्ति किन्तु प्राप्तिः नास्ति, किमर्थं तस्य प्राप्तिः नास्ति?
प्राप्तिः नास्ति किमर्थं चेत् तत्र त्रिपाद्यामेव त्रिपादिसूत्रमेव तत्र ग्रहणं भवति इति कारणेन तस्य प्राप्तिः न भवति। त्रिपादिसूत्राणां ग्रहणमेव भवति तत्र, इति कारणतः तस्य प्राप्तिः न भवति। विप्रतिषेधपरं कार्यम् इत्यस्य प्राप्तिः न भवति।
अस्तु, नीलं भगिनी भवती वदतु, किमर्थं तस्य प्राप्तिः त्रिपाद्यां नास्ति?
इत्युक्ते भगिनि तत्र यदि एकस्मिन् सोपाने त्रिपादीसूत्रद्वयम् आगतश्चेत् तत्र किं तत्र तुल्यबलः द्वयोः सूत्रमध्ये तुल्यबलः अस्ति अपि च अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेत् वयं किं वदामः विप्रतिषेधः वर्तते सूत्रयोः मध्ये विप्रतिषेधः अस्ति परन्तु प्राप्ति न भवति किमर्थं चेत् तत्र अधिकारसूत्रम् आगत्य आयाति प्रत्येकस्मिन् सूत्रे तत्र पूर्वत्र सिद्धम् इति सूत्रम् आगत्य वदति परसूत्रम् असिद्धम् अतः तत्र प्रा यद्यपि परसूत्रं बलवत् अस्ति विप्रतिषेधे इत्यनेन परं सूत्रेण कार्यं तथापि तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः वर्तते अतः तत्र प्राप्ति न भवति कदापि प्राप्ति न भवति
बहु सम्यक् तद् वक्तव्यम् इत्युक्ते त्रिपाद्यां पूर्वत्र सिद्धम् इति नियमेन परसूत्रस्य अस्तित्वमेव नास्ति परसूत्रमेव नास्ति इति चिन्तयति पूर्वसूत्रं पूर्वत्र सिद्धम् इति नियमेन त्रिपाद्यां परसूत्रस्य अस्तित्वमेव नास्ति किन्तु विप्रतिषेधे परं कार्यं सूत्रेण परसूत्रस्य बलं भवति तत्र परसूत्रमेव नास्ति इति कथयामश्चेत् तस्य प्राप्तिः किमर्थं भवति विप्रतिषेधे परं कार्यं सूत्रस्य प्राप्तिः किमर्थं न भवति इत्युक्ते तत्र परसूत्रमेव नास्ति इति चिन्तनम् अस्ति त्रिपाद्याम् इति अतः तस्य प्राप्तिः न भवति वस्तुतः द्वयोः कृते पृथक् पृथक् कार्यक्षेत्रम् अस्ति विप्रतिषेधे परं कार्यं कृते सपादसप्ताध्याय्यां कार्यक्षेत्रम् अस्ति त्रिपाद्यां पूर्वत्र सिद्धं सूत्रस्य कृते कार्यक्षेत्रम् अस्ति पूर्वत्र सिद्धम् इति सूत्रस्य अधिकारः सम्पूर्ण अष्टाध्याय्याम् अस्ति त्रिपाद्यां विप्रतिषेधे परं कार्यं सूत्रस्य प्राप्तिः न भवति अस्तु अग्रे वारणात् आङ्गं बलीयः इति परिभाषायाः प्रसङ्गे किञ्चित् दत्तमस्ति अग्रिमे सप्ताहे तस्मिन् प्रसङ्गे चर्चां करिष्यामः वारणात् आङ्गं बलीयः वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् इति वयं पूर्वं पठितवन्तः अग्रिमे सप्ताहे तस्मिन् प्रसङ्गे चर्चा भविष्यति इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः